भूमौ स्खलितपादानां भूमिरेवावलम्बनं त्वयि जातापराधानां त्वमेव शरणं शिवे। गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः। सनीडे यच्छायाच्छुरणशबलं चन्द्रशकलं धनुशौनासीरं किमिति न निबध्नातिधिषणां धुनोतु ध्वान्तं नः तुलितदलितेन्दीवरवनं घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे। यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो वसन्त्यस्मिन्मन्ये वलमथनवाटी विटपिनां तनोतु क्षेमं नः तव वदनसौन्दर्यलहरी परीवाहस्रोतः सरणिरिव सीमन्तसरणिः वहन्ती सिन्दूरं प्रबलकबरी भारतिमिरा द्विषां बृन्दैर्बन्दी कृतमिव नवीनार्ककिरणं अरालैः स्वाभाव्याद् अलिकलभसश्रीभिरलकै परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिं धरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे सुगन्धौ माद्यन्ती स्मरदहनचक्षुर्मधुलिह ललाटं लावण्य द्युतिविमलमाभाति तव यत् द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलं विपर्यासन्न्यासाद् उभयमपि सम्भूय च मिथ सुधालेपः स्यूतिः परिणमतिराकाहिमकरः। भ्रुवौ भुग्ने किञ्चित् भुवनभयभङ्गव्यसनिनि त्वदीये नेत्राभ्यां मधुकररुचेभ्यां धृतगुणं धनुर्मन्ये सव्ये तरकरगृहीतं रतिपते प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे। अहसूते सव्यं तव नयनमर्कात्मकतया त्रिया मां वामं ते सृजति रजनीनायकतया। तृतीया ते दृष्टिः दरदलितहे माम्बुजरुचि समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरीम्। विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयै कृपाधारा धारा किमपि मधुरा भोगवती का अवंती दृष्टिस्ते बहुनगर विस्तार विजया ध्रुवं तत्तन्नाम व्यवहरण योग्या विजयते कवीनां संदर्भस्तबकमकरन्दैकरसिकं कटाक्षव्याक्षेप भ्रमरकलभौकर्णयुगलम् अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरलौ असूया संसर्गाद् अलिकनयनं किञ्चिदरुणम् शिवे शृङ्गारार्द्रा तदितरजनिकूत्सनपरा सरोषा गङ्गायां गिरिशचरिते विस्मयवती हराहिभ्यो भीता सरसिरुह सौभाग्यजयिनी सखीषु स्मेराते मयि जननि दृष्टे सकरुणा गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधति पुरां भेत्तुश्चित्त प्रशमरसवेद्रावणफले इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके तवाकर्णाकृष्ट स्मरशरविलासं कलयतः विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया विभाति त्वन्नेत्र त्रितयमिदमीशानदयिते पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान् रजसत्त्वं बिभ्रत् तम इति गुणानां त्रयमिव पवित्रीकर्तुं नः पशुपतिपराधीनहृदये दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः नदशोणो गङ्गा तपनतनयेति ध्रुवममुं त्रयाणां तीर्थानाम् उपनयसि संभेदमनघम् निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगति तवेत्याहुः सन्तो धरणिधरराजन्यतनये त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयत परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः तवापर्णे कर्णे जपनयनपैशून्यचकिता निलीयन्ते तो ये नियतमनिमेषाशफरिकाः यं च श्रीर्बद्धच्छदपुटकवाटं कुवलयं जहाति प्रत्यूषे निशि च विघटय्य प्रविशति दृशाद्राघीयस्य धरदलितनीलोत्पलरुचा दवीयां संदीनं स्नपय कृपया मामपि शिवे अनेनायं धन्यो भवति न च ते हानिरियता वने वा हर्म्ये वा समकरनिपातो हिमकरः अरालं ते पाली युगलमगराजन्यतनये न केषामाधत्ते कुसुमशरको दण्डकुतुकं तिरश्चीनो यत्र श्रवणपथमुल्लङ्घ्य विलसन् अपाङ्गव्यासङ्गो दिशति शरसन्धानधिषणा स्फुरद्गण्डाभोग प्रतिफलितताटङ्कयुगलं चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं महावीरो मार प्रमथपतये सज्जितवते सरस्वत्याः सूक्तिरमृतलहरी कौशलहरी पिबन्त्या शर्वाणि श्रवणचुलुकाभ्यामविरलं चमत्कारश्लाघात् चलितशिरसः कुण्डलगणो झणत्कारैस्तारै प्रतिवचनमाचष्ट इव ते असौ नासावंश तुहिनगिरिवंशध्वजपटि त्वदीयो निदीय फलतु फलमस्माकमुचितम् वहत्यन्तर्मुक्ता शिशिरकरनिःश्वासगलितम् समृद्ध्यायत्तासां बहिरपि च मुक्ता मणिधरः प्रकृत्या रक्ताया तव सुदति दन्तच्छदरुचे प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता न बिम्बं तद्बिम्ब प्रतिफलनरागादरुणितं तुलामध्यारोढुं कथमिव विलज्जेत कलया स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबता चकोराणामासीत् अतिरसतया चञ्चुजडिमा अतस्ते शीतांशो अमृतलहरी माम्लरुचय पिबन्ति स्वच्छन्दं निशिनिशि भृशं काञ्चिकधिया अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपा जपा पुष्पच्छाया तव जननि जिह्वा जयति सा यदग्रासीनाया स्फटिकदृशदच्छच्छविमयी सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा रणे जित्वा दैत्यान् अपहृतशिरस्त्रैः कवचिभिः निवृत्तैश्चण्डांश त्रिपुरहरनिर्माल्यविमुखैः विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला विलीयन्ते माता तव वदनताम्बूलकबलाः विपञ्च्या गायन्ति विविधमपदानं पशुपते त्वयारब्धे वक्तुं चलितशिरसा साधुवचने तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां निजां वीणां वाणी निचुलयति चोलेन निभृतं कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया गिरीशेनोदस्तं मुहुरधरपानाकुलतया करग्राह्यं शम्भो मुखमुकुरवृन्तं गिरिसुते कथङ्कारं ब्रूमस्तव चिबुकमौपम्यरहितम् भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती तव ग्रीवा धत्ते मुखकमलनालश्रियमियं स्वतश्वेता काला गरुबहुलजम्बालमलिना मृणालीलालित्यं वहति यदधोहारलतिका गलेरेखास्तिस्रो गतिगमकगीतैकनिपुणे विवाहव्यानद्ध प्रगुणगुणसङ्ख्या प्रतिभुवः विराजन्ते नानाविधमधुररागाकरभुवां त्रयाणां ग्रामाणां स्थितिनियमसीमानैव ते मृणाली मृद्वीनां तव भुजलतानां चतसृणां चतुर्भिः सौन्दर्यं सरसिजभवस्तौतिवदनैः नखेभ्यः संत्रस्यन् प्रथममथनादन्धकरिपो चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया नखानामुद्योतैर्नवनलिनरागं विहसतां कराणां ते कान्तिं कथय कथयामः कथमु मे कयाचिद्वा साम्यं भजतु कलया हन्तकमलम् यदि क्रीडल्लक्ष्मी चरणतललाक्षारसचणं समं देवि स्कन्द द्विपिवदनपीतं स्तनयुगं तवेदं न खेदं हरतु सततं प्रश्नुतमुखं यदा लोक्या शङ्काकुलितहृदयो हासजनक स्वकुम्भौ हेरम्ब परिमृशति हस्तेन झटिति अमूते वक्षोजावमृतरसमाणिक्यकुतुपौ न सन्देहस्पन्दो न गपतिपताके मनसि नः पिबन्तौ तौ यस्मात् अविदितवधूसङ्गरसिकौ कुमारावध्यापि द्विरदवदनक्रौञ्चदलनौ वहत्यम्बस्तम्बे रमदनुजकुम्भप्रकृतिभिस्समारब्धां मुक्तामणिभिरमलां हारलतिकाम् कुचाभोगो बिम्बाधररुचिभिरन्तशबलतां प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते तव स्तन्यं मन्ये धरणिधरकन्ये हृदयत पयः पारावार परिवहति सारस्वतमिव दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत् कवीनां प्रौढानां अजनिकमनीयः कवयिता हरक्रोधज्वालावलिभिरवलीढेन वपुषा गभीरे तेनाभिसरसि कृतसङ्गो मनसि जः समुत्तस्थौ तस्मात् अचलतनये धूमलतिका जनस्तां जानीते तव जननि रोमावलिरिति यदेतत्कालिन्दी तनुतरतरङ्गाकृतिशिवे कृशे मध्ये किञ्चित् जननि तव यद्भाति सुधिया विमर्दादन्योन्यं कुचकलशयोरन्तरगतं तनूभूतं व्योम प्रविशदिवनाभिं कुहरिणीं स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता कलावालं कुण्डं कुसुमशरतेजोहुतभुजः रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो न मन्मूर्ते नारी तिलकशनकैस्त्रोट्यत इव चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा समावस्थास्थेम्नो भवतु कुशलं शैलतनये कुचौ सद्यस्विद्यत् तटघटितकूर्पासभिदुरौ कषन्तौ दुर्मूले कनककलशाभौ कलयता तव त्रातुम्भङ्गात् अलमिति वलग्नं तनुभुवा त्रिधानद्धं देवी त्रिवलिलवलीवल्लिभिरिव गुरुत्वं विस्तारं क्षितिधरपतिः पार्वती निजात् नितम्बात् आच्छिद्य त्वयि हरणरूपेण निदधे अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमती नितम्ब प्राग्भार स्थगयति लघुत्वं नयति च करीन्द्राणां शुण्डान् कनककदलीकाण्डपटली उभाभ्याम् ऊरुभ्याम् उभयमपि निर्जेत्य भवति सुवृत्ताभ्यां पत्यो प्रणतिकठिनाभ्यां गिरिसुते विधिज्ञे जानुभ्यां विबुधकरिकुम्भद्वयमसि पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते निषङ्गौ जङ्घेते विषमविशिखो बाढमकृत यदग्रे दृश्यन्ते दशशरफलाः पादयुगली नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः श्रुतीनां मूर्धानो दधति तव यौ शेखरतया ममाप्येतौ मातः शिरसि दयया धेहि चरणौ ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः नमो वाकं ब्रूमो नयनरमणीयाय पदयो तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते असूयत्यत्यन्तं यदभिहननाय स्पृहयते पशूनामीशान प्रमदवनकङ्केलितरवे मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितम् ललाटे भर्तारं चरणकमले ताडयति ते चिरादन्तः शल्यं दहनकृतमुन्मूलितवता तुलाकोटिक्वाणै किलिकिलितमीशानरिपुणा हिमानी हन्तव्यं हिमगिरिनिवासैकचतुरौ निशायां निद्राणं निशिचरमभागे च विशदौ वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिना सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किं पदं ते कीर्तिनां प्रपदमपदं देवि विपदा कथं नीतं सद्भिः कठिनकमठीकर्परतुलां कथं वा बाहुभ्याम् उपयमनकाले पुरभिदा यदा दायन्यस्तं दृषदि दयमानेन मनसा नखैर्नाकस्त्रीणां करकमलसङ्कोचशशिभि तरूणां दिव्यानां हसत इव ते चण्डिचरणौ फलानि स्वस्थेभ्यः किसलयकराग्रेण ददतां दरिद्रेभ्यो भद्रां श्रियमनिशमन्हाय ददतौ ददानि दीनेभ्यः श्रियमनिशमाशानुसदृशी आनन्दं सौन्दर्यप्रकरमकरन्दं विकिरति तवास्मिन्मन्दारस्तबकसुभगे यातु चरणे निमज्जन्मज्जीव करणचरणषट्चरणतां पदन्यासक्रीडा परिचयमिवारब्धुमनसा स्खलन्तस्ते खेलं भवनकलहं सा न जहति अतस्तेषां शिक्षां सुभगमणिमञ्जीररणितच्छलादाचक्षाणं चरणकमलं चारुचरिते गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृत शिवस्वच्छच्छाया घटितकपटप्रच्छदपट त्वदीयानां भासां प्रतिफलनरागारुणतया शरीरी शृङ्गारो रस इव दृशां दोग्धिकुतुकम् अरालाकेशेषु प्रकृति सरला मन्दहसिते शिरीषाभा चित्ते दृषदुपलशोभाकुचतटे भृशं तन्वी मध्ये पृथुरुरसिजारोह विषये जगत्रातुं शम्भोर्जयति करुणा काचिदरुणा कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं कलाभिः कर्पूरै मरकतकरण्डं निबिडितम् अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं विधिर्भूयो भूयो निबिडयति नूनं तव कृते पुरा रातेरन्त पुरमसि ततस्त्वच्चरणयो सपर्यामर्यादा तरलकरणानाम सुलभा तथा ह्येते नीता शतमखमुखा सिद्धिमतुला तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः कलत्रं वैधात्रं कति कति भजन्ते न कवय श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः महादेवं हित्वा तव सति सती नाम चरमे कुचाभ्यामासङ्गा कुरवकतरोरप्यसुलभः गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो हरेः पत्नीं पद्मां हरसहचरीमद्रितनयां तुरीयाकापित्वं दुरधिगमनिःसी महिमा महामाया विश्वं भ्रमयसि परब्रह्ममहिषे कदा काले मातः कथय कलितालक्तकरसं पिबेयं विद्यार्थी तव चरणनिर्णिजनजलम् प्रकृत्यामूकानामपि च कविताकारणतया कदा धत्ते वाणी मुखकमलताम्बूलरसतां सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा चिरं जीवन्नेव क्षपितपशुपाशव्यतिकर परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् प्रदीपज्वालाभिः दिवसकरनीराजनविधे सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना स्वकीयैरम्भोभिः सलिलनिधिसौहेत्यकरणम् त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम् भूमौ स्खलितपादानां भूमिरेवावलम्बनं त्वयि जातापराधानां त्वमेव शरणं शिवे